इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य सप्तमान्तिम चरणाय च प्रचाराभियानं तीव्रतया प्रचलति। राजनीतिक दलानां शीर्षनेतारः जनान् आकर्षितुं जनसभाः मार्गप्रदर्शनं च कुर्वन्ति। रेमल चक्रवातस्य प्रभावेण असमे मिजोरमे च प्रबलवृष्टिः सञ्जायते। चक्रवातेन अनेन ऐजोल नगरं निकषा दुरापादिते भूस्खलने द्वादश जनाः मृताः। भारतेन पापुआ न्यू गिनी राष्ट्रे साहाय्य पुनर्वास पुनर्निर्माण प्रयासान् समर्थितुम् एकलक्षम् अमेरिकी डॉलर मितस्य साहाय्य राशेः घोषणा कृता। अपि च फ्रेंच ओपन टेनिस स्पर्धा मालिकायाम् अद्य पेरिस नगरे पुरुषयुगलवर्गस्य प्रथमचक्रे शीर्ष भारतीय क्रीडकौ रोहन बोपन्ना युकी वामरी च अभियानस्य आरम्भं करिष्यतः। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य सप्तमान्तिम चरणाय च प्रचाराभियानं तीव्रतया प्रचलति। राजनीतिक दलानां शीर्षनेतारः जनसभाः मार्गप्रदर्शनं च कुर्वन्ति। अस्मिन् चरणे जूनमासस्य प्रथमे दिनांके अष्टराज्यानां सप्तपञ्चाशत् लोकसभासनेभ्यः मतदानं भविष्यति। मतगणना तदनु जूनमासे चतुर्थे दिवसे भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् जूनमासस्य चतुर्थदिवसानन्तरं भ्रष्टजनान् विरुध्य कठोरकार्याचरणं विधास्यति। झारखण्डस्य दुमका विमानपत्तन प्रांगणे एकां जनसभां सम्बोधयन् प्रधानमन्त्री अवदत् यत् झारखण्ड मुक्तिमोर्चादलेन कांग्रेसदलेन च झारखण्डं लुण्ठितम्। भ्रष्टमन्त्रिणां संसत्सदस्यानां अधिकारिणां च स्थलेष् अन्वीक्षणे बृहन्मात्रायां धनं प्राप्तम्। पश्चिमबंगालस्य बारासात बसिरहाट च लोकसभासनयोः प्रत्याशिनयोः समर्थने अद्य उत्तरचतुर्विंशतिः परगना जनपदे भाजपेति दलस्य वरिष्ठनेता प्रधानमन्त्री नरेन्द्रमोदी एकां जनसभां सम्बोधितवान्। अस्मिन् अवसरे श्रीमोदी अवदत् यत् तस्य शासनकाले भ्रष्टाचारस्य प्रति शून्यसहिष्णुता वर्तते। प्रधानमन्त्री उक्तवान् यत् कांग्रेसदलं विपक्षिणाम् इण्डी संयुतिः च सामान्यजनानां विषये न चिन्तयति। ते केवलं आत्मनः चिन्तामेव कुर्वन्ति। सः अवदत् यत् पश्चिमबंगालस्य मतुआ समुदायस्य जनेभ्यः सीएए इत्यस्य अन्तर्गतं नागरिकता दीयते। सममेव उक्तं यत् तदीय प्रशासने महिलाः सशक्ताः भवन्ति। अपरत्र बिहारस्य मुख्यमंत्री नीतीशकुमारः नालन्दा लोकसभासनस्य अष्टवनक्षेत्रे जनसभां सम्बोधयन् लालूप्रसाद यादवम् आलोचयत्। आरजेडी प्रमुखः लालू यादवः अपि अवोचत् यत् ऐषमः निर्वाचनम् आरक्षणं संविधानं च संरक्षितं वर्तते। अन्यत्र उत्तरप्रदेश मुख्यमंत्री योगी आदित्यनाथः गोरखपुरस्य प्रत्याशिनः रविकिशनस्य पक्षे प्रचारम् अकरोत्। प्रधानमन्त्री अथ च भारतीय जनता पार्टीति दलस्य वरिष्ठनेता नरेन्द्रमोदी कांग्रेसदलम् अधिक्षिपत् यत् तद्दलम् आरक्षणस्य नाम्नि मतप्राप्तये राजनीतिं करोति। एकस्मिन् वार्ताभिकरणेन सह स्वीय साक्षात्कारे श्रीमोदिना उक्तं यत् विपक्षिणः मतप्राप्तये राजनीतिं विधाय भारतीय संविधानस्य मूलभावनायाः उल्लंघनं दधति। अमुना प्रोक्तं यत् विपक्षिणः अनुसूचितजातिभ्यः अनुसूचितजनजातिभ्यः पश्चवर्तिभ्यश्च छलं कुर्वन्ति। श्रीमोदिना अवदत् यत् सः एतेषां समुदायजनानाम् अधिकारिणं रक्षायै योत्स्यति। अपि च प्रवर्तननिदेशालयस्य केन्द्रीयान्वीक्षणाभिकरणस्य आयकरविभागस्य च प्रयोगविषयकविपक्षिणाम् आरोपस्य निराकरणं विदधता प्रधानमन्त्री अवोचत् यत् तदीयं प्रशासनं भ्रष्टाचारं निराकर्तुं कार्याचरणे विश्वसिति। लोकसभायां जम्मूकश्मीरे प्रबलमतदानविषये श्रीमोदी अवोचत् यत् तस्मै सन्तोषप्रदः अयं वर्तते। कश्मीरवासिनः उत्साहपूर्वकं मतदाने प्रतिभागम् अकुर्वन्। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। चक्रवातस्य रेमल इत्यस्य प्रभावेण पश्चिमबंगाले दुरापादित घटनासु षड्जनाः मृत्युमुपगताः। तत्र झंझावातेन प्रबलवृष्ट्या च जनजीवनं पर्याकुलितं विद्यते। सामुद्रिकं जलं कृषिक्षेत्रे मत्स्यपालनक्षेत्रे च समागतम्। अत्रान्तरे जनाः प्रशासनिक साहाय्य केन्द्रेभ्यः गृहं प्रति प्रस्थीयन्ते। अपरत्र मिजोरमराज्ये अद्य प्रातः दुरापन्ने भूस्खलने द्वादश जनाः मृत्युमुपगताः। इदं भूस्खलनं राजधान्याः आइजोल नगरात् चतुर्किलोमीटर दूरस्थे फिल्मे क्षेत्रे दुरापन्नम्। तत्र साहाय्योद्धार कार्यं सजवं विधीयते। अवधेयं यत् रेमल चक्रवातेन गतरात्रौ प्रबलवृष्टिः झंझावातश्च समागतौ। अपि च असमराज्ये रेमल चक्रवातकारणेन विविध जनपदेषु प्रबल संचेतना प्रसारिता। प्रभावित जनपदेषु विद्युत् सेवा गतनिषीथात् स्थगिता अस्ति। तत्र विद्यालयाः अपि दिनद्वयं यावत् विहिताः सन्ति। पूर्वोत्तरक्षेत्रस्य रेलसेवा अपि अनेन चक्रवातेन दुष्प्रभाविता वर्तते। विनाशकरं भूस्खलनं निध्याय भारतेन पापुआ न्यू गिनी राष्ट्रे साहाय्य पुनर्वास पुनर्निर्माण प्रयासान् समर्थितुं एकलक्षं अमेरिकी डॉलर मितस्य साहाय्य राशेः घोषणा कृता। पापुआ न्यू गिनी इत्यत्र एंगा प्रान्ते अस्य मासस्य चतुर्विंशे दिने एकं विनाशकरं भूस्खलनं संजातम्। अस्मिन् भूस्खलने शतशो जनाः आपीडिताः। तत्र जनधनहानिश्च संजाता। विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् प्राकृतिक आपत्कारणेन समुत्पन्ने काठिन्यसमये भारतं पापुआ न्यूगिनी देशेन सह विद्यते। मन्त्रालयेन उक्तं यत् आपत्हानेः न्यूनीकरणं प्रबन्धनं च भारतस्य हिन्द प्रशान्त महासागर नीतेः आईपीओआई इत्यस्याः एकः मुख्यस्तम्भः वर्तते। अस्य घोषणा नवदशोत्तर द्विसहस्रतमे वर्षे नवम्बर मासे प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतासीत्। भारतं मानवीय साहाय्यं प्रति आपदोद्धारं प्रति च प्रतिबद्धम् अस्ति। एनआईए इति राष्ट्रियान्वीक्षणाभिकरणेन मानवतस्करणेन अन्तर्जालापराधेन च सम्बद्धं गुल्मं विरुध्य अभियाने पञ्च जनाः निगडिताः। राज्यारक्षिबलानां संयुक्त कार्याचरणे षड्राज्येषु केन्द्रशासितप्रदेशेषु च पञ्चदशस्थलेषु अन्वीक्षणं कृतम्। एते आरोपिणः वडोदरा गोपालगंज दक्षिणपश्चिम दिल्ली गुरुग्राम चण्डीगढ़ नगरेभ्यः निगडिताः। एते सर्वे तस्मै गुल्माय कार्यं कुर्वन्ति स्म यः भारतीय युवभ्यः आजीविकायाः वृथा आश्वासनं प्रदाय विदेशेषु नयति स्म। विदेशं च उपेत्य एतान् यूनः लाओस कम्बोडिया प्रभृति स्थलेषु अवैध गतविधिक्षु कार्यं कर्तुं वदति स्म। संयुक्त कार्याचरणे आंकिकोपकरणानि पारगमनपत्राणि छद्मपत्राणि आपत्तिजनक सामग्री च जडीकृता। अस्मिन् प्रकरणे विविधराज्येषु अष्टप्राथमिक्यः पञ्जीकृताः सन्ति। अस्य मासस्य आरम्भे राष्ट्रियान्वीक्षणाभिकरणेन अन्वीक्षणे ज्ञातं यत् अस्य गुल्मस्य व्यापकान्ताराष्ट्रिय सम्बन्धाः सन्ति। अस्मिन् प्रकरणे इतोऽपि अन्वीक्षणं विधीयते। फ्रेंच ओपन टेनिस स्पर्धामालिकायाम् अद्य पेरिस नगरे पुरुष युगलवर्गस्य प्रथमचक्रे शीर्ष भारतीय क्रीडकौ रोहन बोपन्ना युकी भामरी च अभियानस्य आरम्भं करिष्यतः। उभयोः युगलं पृथक् पृथक् युत्स्यति। इति वार्ताः।